प्राणोच्छेदमुदाहरन्ति मरणं प्राणः किलास्यात्मनो ज्ञानं तत्स्वयमेव शाश्वततया नोच्छिद्यते जातु चित् तस्यातो मरणं न किञ्चन भवेत् तद्भिः कुतो ज्ञानिनो निःशङ्कः सततं स्वयं ससहजं ज्ञानं सदा विन्दति।